अस्तु भगिनि वदतु.
पठामि संस्कृतं नित्यं, वदामि संस्कृतं सदा, ध्यायामि संस्कृतं सम्यक्, वन्दे संस्कृतमातरम्. संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम्. संस्कृतस्य सदा भक्तो, वन्दे संस्कृतमातरम्. संस्कृतस्य कृते जीवन्, संस्कृतस्य कृते यजन्. आत्मानमाहुतं मन्ये, वन्दे संस्कृतमातरम्. हिन्दुधर्मं समाजं च, पवित्रां संस्कृतिं तथा, संरक्ष्य ननु कुर्याम विश्वं शान्ति समन्वितम्. भगिनी, वाट् इस् द नेक्स्ट्?
ॐ शान्ति
शान्ति शान्तिः,
हरिः
ॐ श्रीगुरुभ्यो नमः. हरिः ॐ.
उत्तमं भगिनि, धन्यवादः.
धन्यवादः,
सर्वेषां स्वागतम्. अद्य पुनः वयम् अभ्यासदर्शिनी पुस्तकात् अग्रे गच्छामः, पठामः च. अत्र अभ्यासदर्शिन्यां वयं चतुर्थम् अभ्यासम् आरम्भं कृतवन्तः वयं गतवर्गे, परन्तु किञ्चित् पुनस्मरणं कुर्मः. सो अत्र किम् अस्ति, षष्टिविभक्तिरूपम् अस्ति. अत्र एकवचनमेव अस्ति खलु, सुरेशः सुरेशस्य. त्रीणि रूपाणि कानि? सुरेशस्य, सुरेशयोः, सुरेशानां. गजस्य वदतु.
गजयोः गजानां.
गजानां. गजस्य गजयोः गजानां. बालकस्य?
बालकयोः
बालकानां.
बालकानां. सर्वे वदन्तु बालकस्य बालकयोः बालकानाम्. अस्तु, पुस्तकम् इति अस्ति चेत् पुस्तकस्य पुस्तकानां. पुस्तकस्य पुस्तकयोः पुस्तकानां समानरूपं. बालकस्य बालकयोः बालकानां पुस्तकं, पुस्तकस्य पुस्तकयोः पुस्तकानां. स्त्रीलिङ्गे कथं भवति? माला.
मालायाः
मालयोः मालानां. मालायाः मालयोः मालानां. गौरी अस्ति चेत्
गौर्याः गौर्योः गौरीणां.
गौर्याः गौर्योः गौरीणाम्. अत्र आकारान्त अस्ति चेत् दीर्घं भवति, रमानां. गौरी अस्ति चेत् गौरीनाम् इति.
ओके,
सर्वत्र दीर्घं भवति. अत्र रामः इति अस्ति चेत् अपि रामानां. ज्ञानं ज्ञानानां. वनम् अस्ति चेत् कथं भवति? वनस्य
वनयोः
वनानां.
अत्र अपि दीर्घमेव. इदानीं सर्वनामपदं पश्यामः. तस्य लैक् रामस्य यथा अस्ति तथा एव तस्य, तयोः, परन्तु तेषां, शाम् इति आगच्छति. तेषां, तस्य, तयोः, तेषां, तस्य, तयोः, तेषां. पञ्चवारं वदन्तु कृपया. तस्य, तयोः,
तयोः, तेषां, तस्य,
तयोः, तेषां,
तस्य, तयोः,
तयोः, तेषां.
धन्यवादः, धन्यवादः. सो अन्य अस्ति भवान् शब्दं. भवत्, भवान् इस् एक्चुलि भवत् शब्दं. मूलरूपं भवत् एव. सो अत्र भवतः भवतोः भवताम्. भवतः भवतोः
भवताम्
भवताम् भवतः भवतोः भवताम् मम. अस्मद् शब्दः अस्ति मम. मम आवयोः अस्माकं मम
आवयोः
अस्माकं मम आवयोः अस्माकम् अस्माकम् आवयोः अस्माकम् अस्माकम् अस्तु स्त्री सो अत्र नपुंसकलिङ्गे अपि तथा एव तस्य तयोः तेषामेव तस्य तयोः
तेषाम्
अस्तु इदानीं स्त्रीलिङ्गे रमायाः रमयोः अत्र आकारः ह्रस्वं भवति रमायाः रमयोः रमयोः इति आगच्छति गौरी अस्ति चेत् सर्वत्र प्रथमे एकवचने द्विवचने ईकारः गच्छति गच्छति गौर् ई गच्छति गौर् याः गौर्योः गौर्योः गौर्याः गौर्योः ईकारः पुनः आगच्छति गौरीनाम् इति गौरीना कुत्र ध्वनिः अस्ति अहं दृष्ट्वा अस्तु सविता भगिनी अहं भवती म्यूट् कृतवती बहु ध्वनिः अस्ति अस्तु सो तस्य गौर्याः गौर्योः गौरीनाम् इति अस्ति गौरीणाम् एवमेव तस्याः रमायाः तस्याः तयोः तासाम् अत्र तासाम् इति अस्ति तासाम् तस्याः तयोः तासाम् तस्याः तयोः तासाम् भवती इति शब्दः अस्ति चेत् ईकारान्तपदम् इव भवति गौर्याः भवत्याः गौर्योः भवत्योः गौरीणां भवतीनां भवती शब्दम् ईकारान्तपदम् इव भवति इट् इस् लैक् ईकारान्तशब्द अपि च मम पुल्लिङ्गे स्त्रीलिङ्गे अपि समानमेव मम आवयोः अस्माकं मम आवयोः अस्माकम् अस्तु अग्रे गच्छामः वयं सर्वं कृतवन्तः अत्र बहुवचनं खलु बहुवचनं बहुवचनम् अत्र प्रथमाविभक्ति बहुवचनं बहुवचनं प्रथमाविभक्ति प्रथमाविभक्ति कथं भवति एकवारं पश्यामः अस्तु प्रथमाविभक्ति अत्र सब्जेक्ट् इति वदामः खलु कर्ता गच्छति कः गच्छति गजः गच्छति अतः गजः प्रथमाविभक्तिरूपं भवति गायति सा गायति वा आम् सा इति प्रथमाविभक्ति का गायति का अपि प्रथमाविभक्ति का गायति गौरी गायति प्रथमाविभक्ति रामः गायति प्रथमाविभक्ति प्रथमाविभक्ति कर्ता सब्जेक्ट् कथं जानीमः प्रथमाविभक्ति प्रश्नं कः का किम् इति प्रश्नस्य उत्तरम् आगच्छति चेत् तत् प्रथमाविभक्ति अस्तु सो अत्र रामः रामौ रामाः रामः रामौ रामाः वयं पूर्वमेव रामाः इति जानीमः रामः रामाः सीता सीताः रमा रमाः गौरी कथं भवति गौरी
गौर्यः
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 लेखनी
लेखन्यः
लेखन्याः इति वयं वदामः चेत् षष्टिविभक्तिरूपं भवति अतः लेखन्यः एव कूप्यः उत्पीठिकाः पुस्तकं
पुस्तकानि
पुस्तकानि उत्तमम् अस्तु सः तौ ते अपि भवन्तः जानीमः एव खलु जानन्ति एव सः तौ ते एवमेव कः कौ के भवान् भवन्तौ भवन्तः भवान् भवन्तौ भवन्तः कः कौ के सः तौ ते एषः कथं भवति एषः
प्रथमाविभक्ति प्रथमाविभक्ति
एषः एतौ एते इदानीं स्त्रीलिङ्गे सा ते ताः एषा केवलम् ए योजनीयम् ए योजयित्वा एषा एते एताः अत्र सा अपि च सः प्रथमा विभक्ति एकवचने एव आगच्छति एवमेव एषः एषा एकवचने एव अनन्तरं त भवति तकार भवति अस्तु काके काः सा ते ताः काके काः तत्ते तानि किं के कानि इति रूपाणि प्रश्नाः सन्ति वा अस्तु अस्तु तर्हि पुनः एकवारं पठामः अनन्तरं गच्छामः नमस्ते महेश का पठितुम् इच्छति आरम्भं करोति वा केतकी भगिनि आरम्भं करोतु अस्तु केतकी भगिनि सिद्धा नास्ति गोपिका भगिनी अस्ति वा वदतु
नमस्ते महेश स्वागतम् आगच्छतु उपविशतु
अग्रिममपि पठतु
महेशः संस्कृतपाठः प्रचलति किम् एते किं कुर्वन्ति
अस्तु भगिनि पर्याप्तम् अत्र नमस्ते महेश महेश इति रूपं किं भगिनि सम्बोधन सम्बोधन कथं जानाति भवती सम्बोधन इति न विसर्ग उत्तमम् उत्तमं केतकि भगिनि उसर्ग विसर्गः नास्ति अतः सम्बोधन महेश सम्बोधन अपि च नमस्ते इति अपि अस्ति खलु तदपि सूचयति सम्बोधन इति परन्तु मुख्य अंशः अस्ति विसर्गः नास्ति इति विसर्गः नास्ति स्वागतम् आगच्छतु उपविशतु इति अपि प्रार्थना लोट् लकार इति वदामः वयं प्रार्थना आगच्छति आगच्छतु आगच्छतु इति अस्ति चेत् लोट् लकार इति वदामः आज्ञा प्रार्थना प्रार्थनादेशु न आगच्छति स्वबोत् पुल्लिङ्ग स्त्रीलिङ्ग खलु सः आगच्छति गजः आगच्छति कार्यानम् आगच्छति आगच्छतु इस् बिकास् वि आर् टेलिङ्ग् सम्बडी टु डू समथिङ्ग् प्रार्थना सो वेन् वि टेल् सम्बडी टु डू इट् बिकम्स् टु प्रार्थना कृपया आगच्छतु पठतु लिखतु तु इति अस्ति चेत् प्रार्थना इति अस्ति खलु अत्र प्रार्थना सो अत्र प्रचलति उत्तमः प्रश्नः भगिनि सो अत्र प्रचलति ति इति अस्ति चेत् वर्तमानकाल वर्तमानकाल मीन्स् वाट् इस् हेपनिङ्ग् नौ संस्कृतपाठः प्रचलति इट् इस् हेपनिङ्ग् नौ गच्छतु सो गच्छतु इति अस्ति चेत् अहं प्रार्थनां करोमि कृपया आगच्छतु दट् मीन्स् हि इस् नाट् कमिङ्ग् यत् सः इदानीं न आगच्छति अहं वदामि आगच्छतु उपविशतु इति.
आं भगिनि.
अस्तु, उत्तमम्. सो अत्र संस्कृतपाठः प्रचलति. किं प्रचलति?
संस्कृतपाठः प्रचलति.
सो अतः प्रथमाविभक्तिरूपं विसर्गसहितं. सहितं मीन्स् विद्. विसर्गसहितरूपम् अस्ति संस्कृतपाठः प्रचलति किम्. सो वि केन् यूस् किम्. सो सो इन्स्टेड् आफ् किं वाट् केन् वि यूस्
भगिनि?
वा वि केन् यूस् वा. धन्यवादः. पृच्छतु भगिनि प्रश्नः. प्रश्नः अस्ति वा? I thought somebody had a question.
I just gave the response and unmuted myself.
Oh, I see. Astu. Samskrita paataha prachalati kim? Or prachalati va? Iti. Ete kim kurva?
Bhagini.
Vadatu.
Prachalati chukte going on.
Going on. Chalati prachalati.
Dhanyavada.
Karyanam chalati. Patah prachalati. It is happening. It's taking place. It's going on. Astu. Ete kim kurvanti. So he is pointing to something. Ete kim kurvanti. Astu. Agre patatu. Gopika bhagini.
इदानीं गृहकार्यं प्रचलति. एते बालकाः सम्भाषणं लिखन्ति. ते बालकाः चर्चां कुर्वन्ति. एताः बालिकाः कथां लिखन्ति. ताः बालिकाः प्रश्नवाक्यानि लिखन्ति.
धन्यवादः. अस्तु. सो अत्र इदानीं गृहकार्यं प्रचलति. अत्र एकवचनं गृहकार्यं. कार्यम् इति पदस्य मूलरूपं किम्? न, कार्यम् एव. कार्य. उत्तमं. कार्य. अत्र नपुंसकलिङ्गपदम्. अतः कार्यं भवति. कार्यं प्रथमाविभक्तिरूपं वा द्वितीयाविभक्तिरूपं वा अत्र?
द्वितीयाविभक्ति.
कथं जानीमः प्रथमा वा द्वितीया इति? प्रचलति इति क्रियापदम् अस्ति खलु. किं प्रचलति?
गृहकार्यं
प्रचलति. अतः प्रथमाविभक्ति वा द्वितीयाविभक्ति वा?
प्रथमाविभक्ति.
प्रथमा. लैक् ओवर् हियर् प्रचलति. किं प्रचलति? संस्कृतपाठः प्रचलति. दट् इस् वै द कन्फ्यूशन्. करेक्ट्. दट् इस् वै द कन्फ्यूशन्. बट् यु हाव् टु आस्क् द क्वश्चन्. What is happening? What is taking place? Grihapataha prachalati. So, atra kim prachalati? Grihakaryam prachalati.
Bhagini, we can also say, na, Grihakaryam, Vitikarya thai senji kondirikiran, then it will become dhritya bhakti.
Then somebody else is doing it.
But Bhagini, Grihakaryam means not as
Dvitiya Vibhakti? It could be, Bhagini. I'll point out in the next sentence. Agrima Vakye Atra Pashyanto.
Okay.
Ete Balakaha.
Bhagini?
Vadatu, Bhagini.
Graha Karya Pullingva Napum Sakalingva.
Napum Sakalingva.
Then Graha Karyam
No, it could be, it could be Dithiya too, because of the Karyam, Kalo.
Karyam, okay.
वदतु
कम् इति प्रश्नस्य उत्तरम् आगच्छति चेत् द्वितीया वा कम्
यदे अवगतं बट् यु नो वि हाव् टु लुक् अट् द कर्ता वि हाव् टु सी हू द कर्ता इस् इफ् वि केन् एलिमिनेट् द कर्ता देन् इट् कुड् बि द्वितीय ओके सो अत्र अग्रिमवाक्यं पश्यन्तु एते बालकाः सम्भाषणं लिखन्ति
एतत् सेण्टेन्स् वा इदानीं छात्राः गृहकार्यं प्रचल ऐ मीन् इट् वोण्ट् कम् प्रचलति बट् लिखन्ति देन् गृहकार्यं बिकम्स् द्वितीया रैट्
यस् निश्चयेन सो अत्र एते बालकाः ओके विल् टेक् भगिनीस् एक्साम्पल् हियर् एते बालकाः सम्भाषणं लिखन्ति सो अत्र लिखन्ति बहुवचनं के लिखन्ति
बालकाः
लिखन्ति सो बालकाः प्रथमा विभक्ति खलु सो द क्वश्चन् कः का किं सो द वेरियेशन्स् आफ् कः का किम् इस् के काः कानि खलु सो के लिखन्ति एते बालकाः लिखन्ति बालकाः किं लिखन्ति सम्भाषणं लिखन्ति सो सम्भाषणं विल् बिकम् द्वितीय अवगतम् सम्भाषणं लिखन्ति अत्रापि कुर्वन्ति क्रियापदं के कुर्वन्ति बालकाः कुर्वन्ति बालकाः किं कुर्वन्ति बालकाः चर्चां प्रथमा वा द्वितीया वा
डिस्कशन्
चर्चा इति स्त्रीलिङ्गपदं सम्भाषणं नपुंसकलिङ्गपदं कथा स्त्रीलिङ्गपदम् अत्र ते बालकाः गृहकार्यं कुर्वन्ति इति वाक्यम् अस्ति चेत् कुर्वन्ति के कुर्वन्ति बालकाः कुर्वन्ति बालकाः किं कुर्वन्ति बालकाः गृहकार्यं कुर्वन्ति अत्र गृहकार्यं प्रथमाविभक्ति वा द्वितीयाविभक्ति वा
द्वितीया
How do we know Dvitiya? So I'll say it in English, because it's a very important point. Kurvanti is the Kriyapadam. So we ask, who is doing it? The boys are doing it. So the boys are the subject. Okay? They are the subject. That is, they are the Karta. Karta means Prathama Vibhakti. What are they doing? They are doing grihakaryam. So is grihakaryam the subject or the grihakaryam the object?
Object
means dvitiya vibhakti. Varatu Mahadeya?
No.
Okay, astu. So this is a not difficult point, but it's a very interesting. Very interesting. I wouldn't say difficult, but interesting. Okay? So, Atra...
Aham Grihakaryam Karomi. That also, Grihakaryam becomes Dvitiya or Prathama.
Dvitiya. Aham is the subject.
If there is a subject, then the object becomes Dvitiya.
No. Only
if there is a subject, then the object becomes Prathama.
It depends. Now, if I say, Grihakaryam Karotu, What is the subject there?
It's the person in the opposite door not
mentioned. Exactly. Bhavan or Bhavati. Hello. Bhavan kya karyam karotu. So Bhavan is the subject. Then Grihakaryam becomes the object. Supposing I am saying Grihakaryam asti va.
that becomes prathama.
Ah, prathama. Asti. Kim asti? Grihakaryam asti. That's it. So for the, what is the matter there?
Grihakaryam is karma, isn't it? Karta, karma, kriya.
Ah, karta, karma, kriya. Correct. Correct. प्रथमा विभक्ति कर्ता द्वितीया विभक्ति कर्म क्रियापदं क्रियापदमेव क्रिया ओके सो अस्तु पुनः पुनः दिस 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 टाइप ऑफ क्वेश्चनिंग विल मेक सेंस लिखन्ति सो अत्र स्त्रीलिंगम सो व्हाट विल बी द क्वेश्चन फॉर स्त्रीलिंगम लिखन्ति बहुवचनं काः लिखन्ति बालिकाः लिखन्ति बालिकाः किं लिखन्ति सो अत्र कथां लिखन्ति सो वी केन् गोपिका भगिनी वि केन् आस्क् किम् आल्सो और् इफ् यु नो वि केन् आस्क् कां लिखन्ति कथां लिखन्ति अथवा किं लिखन्ति kathaam likhanti. We get the answer correctly. But the question can be kim. Kim likhanti, kathaam likhanti. So, atra kata asti. Kata asti. This is prathama. Kathaam likhanti. Dvitiya.
No.
नपुंसकलिङ्गं विल् बि द कन्फ्यूशन् अस्तु भगिनि वदतु
इन् दि एक्साम्पल् यु गेव् गृहकार्यं करोतु केन् वि देन् अस्यूम् दट् इवन् इफ् देर् इस् नो एक्स्प्लिसिट् मेन्शन् आफ् द कर्ता केन् बि अ द्वितीय विभक्ति बिकास् यु अस्यूम् भवान् करोतु और्
धन्यवादः ताः बालिकाः प्रश्नवाक्यानि लिखन्ति अत्र वदतु लिखन्ति के लिखन्ति इफ् ऐ डोण्ट् नो ऐ अस्यूम् इट् इस् पुल्लिङ्ग द डिफाल्ट् इस् पुल्लिङ्ग के लिखन्ति बालिकाः लिखन्ति ताः बालिकाः लिखन्ति बालिकाः किं लिखन्ति प्रश्नवाक्यानि अत्र प्रश्नवाक्यानि प्रथमा विभक्ति वा द्वितीया विभक्ति वा
द्वितीया
द्वितीया Because Balika is a subject. Who is writing? Balika. Only who is doing the work is Prathama.
Okay.
What work is getting done? That is Dvitiya.
Ah, okay.
Okay, so everywhere is the same. Samskrita Pataha Prachalati. Kim Prachalati? Pataha. What is the prachalati referring to the patah griha karyam prachalati patah prachalati
ambagini
atra balakaah likanti balakaah kim likanti what are they doing sambhashanam likanti okay so that becomes the object
bagini there is no difference between prathama bahuvachanam and dvitiya bahuvachanam for napumsakalingam
right?
Yeah. That is why this confusion there's no makara ending here right?
correct not just bahuvachanam eka dvi also pustakam pustake pustakani pustakam pustake pustakani tatte tani tatte tani okay there is no difference वाक्यं वाक्ये वाक्यानि वाक्यं वाक्ये वाक्यानि भेदः नास्ति वदतु
सम्भाषणं करोतु सम्भाषणं प्रथमा वा द्वितीया
भवती एव वदतु अत्र सम्भाषणं करोतु वेर् इस् द सब्जेक्ट् कर्ता का
तत्र
गोपिका भगिनी वदतु वेर् इस् द सब्जेक्ट् सम्भाषणं करोतु
नास्ति
सो अत्र वि हाव् टु अस्यूम् इट् इस् भवान् आर् भवति बिकास् करोतु रैट् यु आर् टेलिङ्ग् सम्बडि भवान् सम्भाषणं करोतु अस्तु प्रश्नाः सन्ति वा हौ टु फैण्ड् औट् प्रथमा विभक्ति द्वितीया विभक्ति ओके ऐ मीन् वी केन् कीप् आन् लुकिङ्ग् अट् अदर् एक्साम्पल्स् अस्तु शारदा भगिनी अग्रे पठतु
महेशः एते भवतः सहायकः किम्
अस्तु अग्रिममपि पठतु भगिनि
अरुणः वदति आम् वयं बालकानां साहाय्यं कुर्मः
भगिनि एते भवतः साहायकाः किम् whom are they talking about? I didn't understand.
So they're just pointing to somebody, like over here when they say ete kim kurvanti. So in the next sentence we learn that they are talking about the students.
That's true.
So tata eva, they are pointing to some other people.
Okay, so are these people helping you? Is that what it means?
Aam. सहायकाः वा आर् किम् आम् सो नौ द सहायकाः इस् आन्सरिङ्ग् अरुणः ओके हि इस् वन् आफ् द सहायकाः So here they are talking about other people. Atra ete sahayakah va or kim. I like va, so I keep changing it to va. So Arunaha, he is saying, Aam vayam balakanam sahayam kurmaha. What is balakanam?
Shashti.
Shashti. षष्टि बहुवचनं त्रीणि रूपाणि कानि अत्र बालकस्य बालकयोः बालकानां साहाय्यं कुर्मः वि केन् आल्सो से साहाय्यं कुर्मः आर् साहाय्यं कुर्मः वयम् ओके ते सो हौ विल् यु चेञ्ज् इट् टु ते
सहायं कुर्मः
इन्स्टेड् आफ् कुर्मः इट् विल् बि
कुर्वन्ति
उत्तम कुर्वन्ति ते बालकानां साहाय्यं कुर्वन्ति अस्तु सन्ध्या भगिनी अग्रे पठतु
अस्तु महेशः वदति बालकाः पठन्ति भवन्तः तेषां सहायं कुर्वन्ति एषः पाठनक्रमः उत्तमः अस्ति
अस्तु भगिनि धन्यवादः बालकाः पठन्ति अत्र किमपि नास्ति खलु नूतनविषयः नास्ति बालकाः पठन्ति के पठन्ति बालकाः पठन्ति प्रथमा विभक्ति वा द्वितीया विभक्ति वा बालकाः प्रथमा बहुवचनं बालकाः बालकौ बालकाः सो यु गेट् यूस् टु सेयिङ्ग् द त्री फार्म्स् इट् विल् बि फन् बालकः बालकौ बालकाः बालकाः पठन्ति भवन्तः रूपं किं भवन्तः
बहुवचनं
बहुवचनं भवान् भवन्तः भवान् भवन्तौ भवन्तः भवान् भवन्तौ भवन्तः भवन्तः तेषां रूपं किं तेषां त्रीणि रूपाणि कानि? तेषाम् इति पदस्य
तयोः तेषां
तस्य तयोः तेषाम् अस्तु तस्य तयोः तेषां भवन्तः तेषां साहाय्यं कुर्वन्ति. ओके उत्तमं तेषां साहाय्यं कुर्वन्ति. एषः सो दे आर् पायिण्टिङ्ग् टु संथिङ्ग्. पाठनक्रमः इस् लैक् द टीचिङ्ग् मेथड्. क्रमः उत्तमः अस्ति. वै इस् इट् उत्तमः अण्ड् नाट् उत्तमा आर् उत्तमम्?
पाठनक्रमः
पुल्लिङ्गपद. सन्ध्या भगिनी भवती वदतु, एषः पाठनक्रमः उत्तमः अस्ति. किमर्थं? विशेषणम् अस्ति. उत्तमं भगिनि. विशेषणं पाठनक्रमः विशेष्यम् उत्तमं. सो अत्र एषः अपि विशेषणम् एव, बिकास् आफ् पाठनक्रमः. सो इट् इस् एषः उत्तमः. एव्रिथिङ्ग् इस् हेस् टु अग्री वित् क्रमः. पाठनक्रमः उत्तमः अस्ति. धन्यवादः श्रीनिवास.
Something in the previous sentence, before Aruna, I mean the previous vacuum of Mahesh, the question, Ete Bhavataha Sahayaka Hakim, there are two Prathama Vibhaktis there, right?
Uttamam, astu. So we have,
Sahayaka are both Prathama, so it's not necessary that the second one
विशेष्यं रैट्. सो एते इस् द विशेषणम् आफ् दिस् वन्. एते सहायकाः. सो दर्स् अ कनेक्षन् बिट्वीन् एते अण्ड् सहायकाः. एते सहायकाः किं? कस्य सहायकाः? भवतः सहायकाः. सो फार् ईच् वर्ड् वि केन् आस्क् अ क्वश्चन्. सहायकाः वा? आम् सहायकाः.
Actually, Bhagini, I have a slightly different point of view here apologies.
No, please, vadatu.
My interpretation of the sentence is that these boys or these men are helpers, is it?
Yeah, they are.
So that is my interpretation. It is not, are these your helpers? Bhavatah here probably does not mean your. It probably means these people, these men or these boys, are they helpers? So, Ete Bhavatah would be the Viseshasya and Sahayakah might be the Viseshana.
No, Bhagini. Okay, this is the Visheshana, Visheshyam. This is the noun. Sahayakah is the noun. Ete corresponds to the noun. So, Visheshanam, Ete. So, we cannot say Etah, right? So, it has to be Ete because of Sahayakah. Bhavatah is Kasya Sahayakah. So, this is not a Visheshanam.
It's not a noun, is it, Bhavatah?
No. Bhavatah nama kim, right? We cannot say anything else. Bhavatah.
Your. Oh.
अस्तु धन्यवादः भगिनि. अस्तु श्रीनिवास महोदय. प्रश्नः वा वदतु भगिनि, केतक भगिनि. आम् एते बिकास् आफ् बहुवचनम् इट् इस् एते. सपोसिङ्ग् इट् इस् सहायकः, देन् वाट् विल् कम् हियर्?
एषः
एषः श्रीनिवास महोदय अस्तु बालान् उद्दिश्य
बालान् उद्दिश्य भोः बालकाः सम्भाषणलेखनं समाप्तं किम् तर्हि भवन्तः चर्चां कुर्वन्तु भोः बालिकाः कथालेखनं समाप्तं किम् तर्हि भवन्त्यः प्रश्नवाक्यानि लिखन्तु
भवत्यः अस्तु सो अत्र बालान् उद्दिश्य मीन्स् टुवर्ड्स् द लुकिङ्ग् अट् द बाय्स् सो दिस् इस् मेण्ट् फार् द बाय्स् इति उद्दिश्य भोः भोः इस् अ केजुवल् कान्वर्सेशन् लैक् हे बालकाः सम्बोधन सो वदतु
बालकाः
आम् आम् अत्र सम्बोधन अहं प्रदर्शयामि अस्तु सम्बोधनरूपे एकवचने एव विसर्गः गच्छति ओके द्विवचने बहुवचने यथा प्रथमाविभक्तिरूपम् अस्ति तथा एव अत्रापि अस्ति राम रामौ रामाः प्रथमाविभक्ति कथं भवति रामः रामौ रामाः परन्तु सम्बोधने राम रामौ रामाः एवमेव सर्वत्र तथा एव रमे रमाः प्रथमाविभक्तिरूपाणि रमा रमे रमाः सम्बोधने रमे रमाः
भगिनी ऐ हाव् अ रिक्वेस्ट् केन् एव्रिबडि म्यूट् देम्सेल्स् आफ्टर् दे टाक् बिकास् इट्स् लाट् आफ् नाय्स्
आम् आम् भगिनि ऐ अग्री
दे केन् टाक् अण्ड् दे शुड् म्यूट् एव्रिवन् इस् अट् अ
आम् भगिनि दट् इस् या बहु धन्यवादः सो अत्र सो वि हाव् रमा रमे रमाः प्रथमाविभक्ति परन्तु सम्बोधने एकवचनं बिकम्स् रमे बट् दि अदर् स्टेस् एस् प्रथम सो इन् सम् बुक्स् वि सी इट् एस् सम्बोधन प्रथम दट् इस् हौ सम् बुक्स् काल् इट् सम्बोधन प्रथम टु रिमैण्ड् अस् दट् एकवचने एव भेदः भवति अनन्तरं गौरी गौर्यौ गौर्यः गौरी गौर्यौ गौर्यः लेखनी लेखन्यौ लेखन्यः खलु तथा एव भवति अत्रापि मित्र मित्रे मित्राणि अस्तु अत्र आगच्छामः भोः बालकाः वदतु
Are we supposed to pronounce the visargam or the visargam becomes silent?
Mostly we pronounce, but then later on we will learn that because of sandhi. It becomes O, but now we will pronounce everything.
Now we'll pronounce, okay.
Yeah. Boho balakah sambhashana lekanam samaptam kim. So atra samaptam va like that right so it's not asking a like samapayatu is not saying samaptam va samaptam kim iti so atra sambhashana lekanam prathama va dvitiya va
sambhashana lekanam samaptam prathama only because
prathama correct सम्भाषणलेखनं समाप्तं दट् इस् द ओरिजिनल् सेण्टेन्स् खलु सम्भाषणलेखनं समाप्तं किं समाप्तं सम्भाषणलेखनं समाप्तम् अस्तु तर्हि भवन्तः चर्चां कुर्वन्तु भवन्तः रूपं किं भवन्तः प्रथमाविभक्ति बहुवचनं भवान् भवन्तौ भवन्तः चर्चां कुर्वन्तु अस्तु भोः बालिकाः चर्चां द्वितीय सत्यं भोः बालिकाः अत्र बालकाः अत्र बालिकाः बालिकाः कथालेखनं समाप्तं किं सेम् सेण्टेन्स् कन्स्ट्रक्षन् कथालेखनं समाप्तं किं तर्हि भवत्यः भवती भवत्यौ भवत्यः ऐ एम् स्ट्रेस्सिङ्ग् द रूपं बिकास् यु नो इन् दिस् स्टेज् यु हाव् टु बि वेरि फर्म् वित् द रूपाणि ओके भवत्यः प्रश्नवाक्यानि लिखन्तु प्रश्नवाक्यानि द्वितीय वा प्रथम वा भवत्यः इस् द सब्जेक्ट् प्रश्नवाक्यानि लिखन्तु एस् वाट् संध्या भगिनी सेड् यू केन् हाव् टू सब्जेक्ट्स् इट् डजन्ट् मीन् द सेकेण्ड् वन् इस् आटोमेटिक्ली एन् आब्जेक्ट् सपोसिङ्ग् वी केन् से भवन्तः भवत्यः प्रश्नवाक्यानि लिखन्तु सो बोत् केन् बि सब्जेक्ट्स् सो वि हेव् टु बि वेरि केर्फुल् सो प्रश्नवाक्यानि लिखन्तु अस्तु अग्रे सविता भगिनि
आं भगिनि महेशः मित्र अहम् आगच्छामि तावत् भो बालकाः भवन्तः सम्यक् पठन्तु सर्वे छात्राः अस्तु वयं सम्यक् पठामः
अस्तु भगिनि धन्यवादः सो अत्र मित्र सम्बोधन मित्र अहम् आगच्छामि तावत् तावत् इस् जस्ट् लैक् सेयिङ्ग् ओके देन् लैक् देट् सो नथिङ्ग् स्पेशल् देर् अहम् आगच्छामि आगच्छामि इस् लैक् ऐ एम् कमिङ्ग् एक्चुलि इस् लीविङ्ग् बट् इन् अवर् कल्चर् वि जस् वि डोण्ट् से ऐ एम् लीविङ्ग् खलु वि जस् से ऐ एम् कमिङ्ग् वरेन् पोयिट् वरेन् लैक् देट् उण्टानो लैक् देट् अहम् आगच्छामि भोः बालकाः भोः बालकाः सो अत्र बालिकाः अपि सन्ति परन्तु बालकाः मीन्स् एव्रि वन् टुगेदर् हियर् दे आर् सेयिङ्ग् सेपरेट्लि भोः बालकाः भवन्तः डू दिस् बालिकाः भवत्यः डू दिस् बट् हियर् भोः बालकाः मिश्रणं बोत् बालकाः बालिकाः मिलित्वा बालकाः एव भवन्तः बिकास् आफ् बालकाः भवन्तः सम्यक् पठन्तु यु केन् आल्सो से सम्यक्तया पठन्तु बट् सम्यक् पठन्तु इस् आल्सो ओके सम्यक् पठन्तु सर्वे छात्राः अत्र अपि पुल्लिङ्गे स्त्रीलिङ्गे मिलित्वा छात्राः अस्तु वयं सम्यक् पठामः अत्र भेदः नास्ति पुल्लिङ्गे अपि पठामः स्त्रीलिङ्गे अपि पठामः एव वयं सम्यक् पठामः अस्तु प्रश्नाः सन्ति वा
भगिनि
वदतु भगिनि
I would really like to apologize profusely if I'm stretching your patience but I just wanted to understand this a little better
अस्तु
Suppose that old sentence had been ete bhavantah sahayakah kim would it then make it pronounced instead of bhavatah had it been bhavantah would then the bhavantah become the noun
no it can never bagini and besides it will not be bhavantah kalo what is the bahuvachanam of bhavatah
भवतां भवता या प्लूरल् देर् वुड् दट् चेञ्ज् द कन्स्ट्रक्षन् इन् एनि वे
नो लेट् से वि डोण्ट् इवन् से नो इट् विल् नाट् से इट् विल् नाट् चेञ्ज् भगिनि बिकास् भवतः द फार्म् सेस् इट् इस् षष्टि विभक्ति दट्स् इट् So the Shashti Vibhakti can never become Prathama Vibhakti, kalo?
Okay. I forgot the Shashti part of it. Okay.
Astu.
Thank you.
No problem. Don't apologize for these things. No, this is a learning thing for everybody. So, astu. Astu. So, atra, vayam jani maha eva, kalo? Balakaha. प्रथमा विभक्ति बालकाः सो अग्रे गच्छामः माला माले मालाः बहुवचनम् अत्र सम्यक्तया न लिखितम् अत्र परन्तु वी विल् लुक् अट् द चार्ट् हियर् रामस्य रामयोः रामाणां रमायाः रमयोः रमाणां गौर्याः गौर्योः गौरीणां ज्ञानस्य ज्ञानयोः ज्ञानानां तस्य तयोः तेषां भवतः भवतोः भवतां मम आवयोः अस्माकम् इत्यादयः सन्ति अस्तु अग्रे गच्छामः क्रियापदमपि वयं
भगिनि इन् द प्रीवियस् पेज् सर्वनामशब्दः पुल्लिङ्ग नाट् दिस् वन् इन् द बुक्
अस्तु
सः एते एतेषाम् इट् सेस् लिटल् अप् द पुल्लिङ्ग शुड् इट् बि सः ते तेषां बिकास् दिस् इस् एषः एते एतेषां should it be saha te tesham
no bhagini just look at this they are looking at the bahuvachanam
okay so it is
saha tau te
it should not be ete no that's what I'm asking
that's what you're asking correct
it should correct. be te right
te correct sahataute okay I got it so it is sahataute this is tasya tayoho tesham but your question is the ete correct you're right it should be only te
why so ete would be wrong then
yeah okay. ete is wrong kalo because here it is ete
okay.
and what does kritihi mean srilinge balika balikaah what is kritih a little below on the left hand side if you come down a little bit what is kritih
like you know it is a name bagini kriti like you
okay
yuvatih is a young person we can also say yuvati also
And Taruni also you said in between Yuvati and Mahila you said, right?
Aam.
Okay.
Bhagini, Kriti could be creation also, isn't it?
Yeah, creation. Kritihi. Creation. Astu. Like Shrutihi, you know, it is a Nama Padam as well as something that is said, right? Shruti. I mean heard. Shrutihi. That which is heard is Shruti. That which is remembered is Smriti. Like they say, Shruti, Smriti, Purananam, that's the slokam like that, right? Shruti, Smriti. Kriti, Kritika. So there are names like that also. So, astu. Atra api vayam gacchamaha karoti kurvanti. Shrunoti? Shrunvanti. Shaknoti? Shaknuvanti. Janati? जानन्ति क्रीणाति क्रीणन्ति गृह्णाति गृह्णन्ति ददाति ददति ओके दिस् इस् डिफ्रेण्ट् ददति यच्छति इस् आल्सो ददाति एव यच्छति यच्छन्ति रोदिति
रुदन्ति
अत्र अहं करोमि वयं कुर्मः अहं शृणोमि वयं
शृण्मः
शृण्मः शृणुमः अथवा शृण्मः बोत् द्वौ अपि समास शक्नोमि शक्नुमः
शक्नुमः
जानामि जानीमः जानीमः क्रीणामि क्रीणीमः So these three are the same. Grinnami, Grinnimaha. Dadami, Dadmaha. यच्छामि यच्छामः रोदिति रुदीमः वेरि डिफ़्रेण्ट् आल्सो रुदीमः
यच्छति
यच्छति इस् लैक् ददाति 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 अर्थे यच्छति
यच्छति इस् टु आस्क् राइट ओर् टु बेग्
नो नो टु गिव्
यच्छति इस् टु गिव्
इसन्ट् इट् मेबि ऐ एम् नाट् रिमेम्बर् सो लेट्स् गो टु द थिङ्ग् मेबि आस्क् खलु यच्छति
What I have, I, this question came somewhere, what somewhere, one of the Guruji answered was that when you give on your own, it is Dadati, when you give, when somebody is asking and giving, that is Echati, something like that.
Right, so the meaning is give, yeah, you're right.
Echati, okay, let's look at Echati.
To give,
Eva, va? Astu, to give. Okay, yeah, Uttamah, so without asking is Dadati, after asking is Echati. यच्छति वा ओके गुड् गुड्
गुरुजी सेड् इन् वन् आफ़् द प्रोग्राम् सो थिंग्स्
हा उत्तम या या गुड् गुड् महोदय गुड्
केल्विज्ञानं व्हाट् यू कॉल व्हाट् आई हर्ड दैट्स इट
या या गुड् गुड् केल्विज्ञानं इस् वेरी गुड् ओके अस्तु सो अत्र सो दे आर् गिविङ्ग् वै वि डोण्ट् यूस् त्वम् ओके सो इफ् वि यूस् त्वम् देन् इट् बि बिकम् अ प्रोब्लम् वेन् वि मेक् सेण्टेन्सेस् लैक् इट् बिकम्स् पट् अ सी Tvam patasi, likasi, like that. So to avoid learning extra things, now we are learning only Bhavan and Bhavati. Okay. So I'm going forward with this. Aham likami. So when we use aham, only time we use me is when we use aham. Aham gachami, patami, likami. Everywhere else we use only ti. Like balakah, saha, yeshah, kaha, bhavan. And evameva strilinge, napumsakalinge, sarvatra we use gacchati. Sa gacchati, bhavan gacchati, karyanam gacchati, vimanam gacchati, nauka gacchati, sarvatra gacchati eva. Okay, gacchati. Okay. अस्तु अग्रे सम्बोधनम् इदानीमेव वयं पठितवन्तः बहुवचने प्रथमाविभक्तेः यत् रूपम् अस्ति तदेव सम्बोधने अपि भोः बालकाः बालिकाः पठतु तु इति आगच्छति चेत् वयम् आज्ञां कुर्मः पठतु इदानीं सः पठति चेत् पठति इदानीं न करोति करोतु इति वयं वदामः चेत् तु इति परिवर्तनं भवति अस्तु सो अत्र दे आर् टाकिङ्ग् अबौट् द रूट् फार्म्स् आफ् द धातु ऐ मीन् द क्रियापदं द रूट् फार्म् आफ् द क्रियापदम् इस् काल्ड् धातु इति What is the root form of nouns called? Pratipadikam.
Pratipadikam.
So we call it Pratipadikam. For example...
Moola Shabda Samanameva Bhagini.
Moola Shabda is the generic word. Moola Shabda.
So Moola it could refer to either verbs or nouns.
बालिका इति पदस्य मूलशब्दः बालिका बालिका इति शब्दस्य मूलरूप प्रातिपदिकं बालिका अस्तु लिखति इति क्रियापदस्य मूलशब्दः अथवा धातु अस्ति लिक् धातु वद् धातु पट् धातु इत्यादयः सो दे गिविन् सम् साम्पल्स् करोति इस् कृ धातु नयति नी धातु सो अतः वि हेव् नीतवान् कृतवान् क्रीणाति क्री धातु धातु इस् क्री द इङ्ग् इस् देर् सेम् थिङ्ग् इवन् हियर् it will become dukrun. Krun is that krun. But you know, by in time the in dropped off, so we have kri, krinati, kritavan. Prich dhatu, tishtati shta dhatu, gacchati gam dhatu, pibati pa is the root form, pa dhatu, shrunoti shru. These are not that important, you know, but important to memorize, but just be aware, okay? Pibati pa, roditi rud, jigrati gra, va.
Bhagini, shaknoti dhatu, how to pronounce that word? I mean,
shakr.
It's a Repha type of sound.
Yeah, it's like the like a I e u u r r r. So it's a combination of il, ir and u il r.
Can you just write it and show Bhagini?
Yep, I'm going there now. Il
plus hriday.
Hr, yeah, like hr, but it is lr.
Oh.
Lr, okay, so this is a combination of il plus r. Can you see this?
I'm hearing
r. So it is shakr, and then vati, dha, dadhati.
Vati artham kim?
Artha asti to blow, like the wind blows.
I thought Vik, Bhagini, Vati.
Which one?
Vati, I thought Vik, which we put the cotton Vik in the lamp.
Oh, no. No, because that is a Nama Padam Kalu, this is a Kriya Padam. Ashtu Bhagini Vadato, Prashna.
If we have to look up the Dhatu Mala for constructing sentences and getting the verb, the index is based on the dhatu, obviously. So, if there is any thumb rule to be able to figure out what the dhatu is for a particular verb, I mean, since I'm an absolute novice, for instance, to figure out the jigrati, I have to look up gra. Is there any thumb rule there? To be able to derive the dhatu from a verb, like jigrati.
Okay, so let's look at jigrati, okay? So we go here. There are many things. I just like this is very easy to use, but you know, people do not recommend this actually. Jigra. So we have gra as the root.
Oh,
can you see that?
Okay. Okay, wonderful.
So using this, there is a very very nice website called Ashtadhyayi.
Okay.
Ashtadhyayi, sometimes it will not pick up if you write in English, okay, gra. Okay, it's not working very nicely now.
Okay. It's in weekend mode.
Yeah. Okay, and anyway, so if you go there, you will be able to find it. Okay? Astu. Okay, Agre Gacha. Agre
Gacha. Hyavati Artham Kim?
Hyavati is to invoke, like when we say the Havan. Havan, right? Havan. Hyavati. Okay, I'm going to... ह्यवति अस्तु पश्यति दृश् जानाति न्या इति अस्ति अस्तु अग्रे देन् वि कम् टु द ओके अभ्यासः नागेशः वासुदेवस्य मित्रं सः वासुदेवस्य गृहं गन्तुम् इच्छति अतः वासुदेवः नागेशं प्रति एकं सन्देशं प्रेषितवान् अस्ति तत्र मार्गविवरणम् अस्ति अस्तु एकमेकं वाक्यं पश्यामः नागेशः वासुदेवस्य मित्रं प्रश्नाः सन्ति वा अत्र अर्थं जानन्ति खलु सर्वे वासुदेवस्य मित्रम् नागेशः कः नागेशः मित्रं नागेशः कस्य मित्रं वासुदेवस्य मित्रं वासुदेवस्य मित्रं सः वासुदेवस्य गृहं गन्तुम् इच्छति वाट् इस् द फार्म् गन्तुम् तुमन् फार्म् वेरि गुड् तुमन् सो द तुमन् इट् केनाट् स्टाण्ड् आन् इट्स् ओन् हलो गन्तुम् इच्छति पठितुं गच्छति अण्ड् देन् वाट् हेपन्स् बिफोर् हेस् टु बि द्वितीया विभक्ति गृहं गन्तुम् इच्छति पाठं पठितुम् इच्छति सो दीस् इस् दीस् आर् द रूल्स् वि डिड् नाट् लर्न् द रूल्स् बिफोर् बट् वि जस्ट् यूस्ड् इट् गन्तुम् इच्छति गृहं गन्तुम् इच्छति इफ् इट् इस् पठितुम् इच्छति पाठं पठितुम् इच्छति लैक् दट् वासुदेवस्य गृहं गन्तुम् इच्छति अतः मीन्स् अतः वासुदेवः नागेशं प्रति मीन्स् टुवर्ड्स् नागेशं प्रति एकं सन्देशं प्रेषितवान् प्रेषितवान् इस् आल्सो अ प्रत्यय तावत्तु प्रत्यय सो अत्र क्रियापदम् इस् अस्ति एव नाट् प्रेषितवान् इस् ओन्लि अ प्रत्यय रैट् इट् इस् ओन्लि अ प्रत्यय नागेशं प्रति एकं सन्देशं प्रेषितवान् तत्र मार्गविवरणम् अस्ति कुत्र सन्देशे मार्गविवरणम् अस्ति सो अत्र हि इस् रैटिङ्ग् मित्र भवान् स्वगृहतः युवर् लैन्स् आर् सेयिङ्ग् भवतः गृहतः हि रोट् स्वगृहतः मल्लेश्वरवृत्तं वृत्तम् इत्युक्ते सर्कल् मल्लेश्वरं सर्कल् आगच्छतु तत्र 41 यानम् आरोहतु हौ डि वि से 41 यानम्
एकचत्वारिंशत्
सो एकचत्वारिंशत् यानम् आरोहतु to get up.
Get into it.
So, arohanam is to climb up. Arohanam, avarohanam, iti sangeete asti kalo. Arohanam, avarohanam.
Nageesham prati ekam sandesham preshitavan asti. Tatra asti agantavyam nasti kala.
आगन्तव्यम् इति नास्ति खलु सम्यक् प्रेषितवान् एव पर्याप्तम्
I didn't understand what she said.
So atra, if we write sandesham preshitavan tat paryaptam va iti tasyaha prashnah aham uktavati am preshitavan iti paryaptam.
Mm-hmm.
It's like saying mama nama Radhika.
परन्तु अत्र प्रेषितवान् शब्दः भूतकालं नास्ति वा?
भूतकालमेव.
परन्तु अस्ति वर्तमानकालम् अस्ति.
सो गुड् क्वश्चन् भगिनी. सो आङ्ग्लभाषायामपि तथा अस्ति खलु. शि हेस् कम् शि हेड् कम्
शि हेस् ओके
शि सो अत्र he has sent, that means it is still in play.
Continuing.
Yeah, he had sent means like long time back he had sent it. Tata nasti, he has sent, that's the reason we have asti.
Okay,
present continuous.
It's not present past continuous.
Past continuous, right?
It's not even past continuous, it is past. But that event is still continuing, like that.
We can call a new terminology called life past.
Life past, or the, yeah, life past, very good, yeah, life past, okay. For example, if I say, my son came, okay, I can say it in two ways. I can say, mama putraha agatavan. Asit means he had come, but he's not here yet. I mean, he's not here, or he is here, I don't know. But if I say mama putraha agatavan asti means he has come, that means he's still here. I'm implying that. So atra, the implication is there, that is that it is still happening, like how Mahodaya said, it is live past or something.
What was the Gopika Bhagini saying?
She's her question was whether we should add the asti or not.
Okay.
I said it is not necessary to add the asti, but since we added the asti, that now we are doing something with it, so it is still live. Like we are doing something about it, like this is not in the way past, but it's like a near past.
Okay,
near past.
Bhagini, mama putra agatavan. If you stop there, it could mean he had come. I mean, he's not here anymore. Right?
No, it could mean both. Mama putra agatavan. Agatavan. Agatavan asti means I've been waiting for him and he has come now. He had come, he has come. That is the difference. Astu, bhavan, astu, antima sthanakam, Gandhi vitikam, agachatu. Antima sthanakam, last stop.
Terminus.
Sthanakam, it depicts terminus. Antima sthanakam, it's understood. Last stop, last terminus. Gandhi vitikam agachatu. That is the name of a viti, a place. Viti. It's actually viti or vitika. Vitikam agachatu. Madhye kutrapi na avataratu. Do not get down anywhere. Kutra api kutrapi. So atra, if we add a na, it is negative. If we don't add the na, it is positive. Kutrapi gachatu. What does that mean? Kutrapi gachatu?
Go anywhere.
Kutrapi ma gachatu.
Don't go anywhere.
So here, he should have actually written kutrapi ma avataratu, correct? It should have been ma. Kutrapi ma avataratu. Yanat avatirya. Yanat, what is the vibhakti atra? Yanat?
panchami panchami
ah yanatah yanat we can say both yanatah or yanat yanat avatirya arohanam avarohanam avatirya after getting down so tirya is lyap padam lyabantam parshvastasya parshvastasya nearby पद्मसदनस्य
आरोहणम् अवरोहणम् इत्युक्ते
आरोहणम् इस् टु गो अप् अवरोहणम् टु कम् डौन्
सङ्गीते
अपि अस्ति आरोहणम् अवरोहणम् धन्यवादः अस्तु यानात् अवतीर्य पार्श्वस्तस्य पद्मसदनस्य पुरतः तिष्ठतु पद्मसदनम् इति एकम् अस्ति तस्य पुरतः तिष्ठतु सदनस्य पुरतः मम अनुजः यानेन विभक्तिका यानेन
यानेन
यानेन तृतीया तृतीया यानेन तत्र आगच्छति कः आगच्छति अनुजः कस्य अनुजः मम अनुजः यानेन तत्र आगच्छति तेन सह विभक्तिका
तृतीया
सो हियर् यानेन सह न आगच्छति खलु यानेन बिकास् वि आर् यूसिङ्ग् द यानम् Here we are not using the person, we are doing something with the person. Then it is tena saha. Tena means anujena saha. Anujena saha mama griham prapnotu. Come to my house. Avagatam so far? All the
grammar. Actually,
to get, isn't it?
Obtain, right?
Praptam is to get, isn't it?
Get, but here it means reach. Okay, reach. Any other questions? Astu.
Avataratu, Bhagini.
Avataratu means to get down. Avataratu. Don't get down.
Avatara comes down.
Avataram, correct. Avataratu. And then avatirya after you get down
yana avatirya
avatirya
kriya padam
so avataratu is the kriya padam avatirya is the lyabanta roopam lyabanta means whenever we have a upasarga it changes to avatirya without the upasarga it will be twanta padam kalo gatva patitva likitva tva tva twantam here it is ya lyabantam
yavantam or yavantam
lya we add a la before it we call it lyabantam
lyabantam
लेबन्त पदम् अस्तु षड्वादनपर्यन्तं प्रतीक्षां करोतु प्रतीक्षां मीन्स् वेट् प्रतीक्षां करोतु षड्वादनपर्यन्तम् अप् टु 6 o'clock षड्वादनानन्तरम् अपि मम अनुजः न आगतः चेत् इफ् हि स्टिल् डजन्ट् कम् भवतः त्रिचक्रिकया ऐ मीन् भवान् त्रिचक्रिकया आगच्छतु विच् मीन्स्
आटो रिक्षा
यु टेक् अन् आटो अन् कम्
भगिनि
वदतु
तत्र आगतः इट् शुड् कम् अलाङ्ग् वित् षष्टि
No, so this, yeah, good point, Bhagini. So this is a rupam called tha, ikta. We haven't learnt it yet, but it will be the same like na agatavan. Mama anujah na agatavan chet bhavan trichakrikaya agachatu. Na agatavan. Okay, so we can change it to agatavan. न आगतवान् चेत् भवान् त्रिचक्रिकया आगच्छतु अथवा अथवा मीन्स् ओर् एल्स् अनुजः न आगतवान् चेत् मह्यं दूरवाणीं करोतु मह्यं वाट् इस् द विभक्ति मह्यं द्वितीयम् चतुर्थी मह्यं दूरवाणीं करोतु मम कृते दिस् इस् लैक् यु नो फार् मै बेनिफिट् लैक् देट् वी केन् आल्सो यूस् द्वितीय मां दूरवाणीं करोतु ओके बट् द फार्म् हियर् इस् चतुर्थी दूरवाणीं करोतु अद्य रात्रौ रात्रिः रात्रौ सप्तमी विभक्ति फार् इकारान्तपदम् अद्य रात्रौ मम गृहे एव तिष्ठतु गृहे वाट् इस् द विभक्ति गृहे
सप्तमी
कुत्र कुत्र सप्तमी कदा आल्सो सप्तमी दे आर् बोत् सप्तमी रात्रि कदा रात्रि श्वः प्रातः इफ् इट् इस् जस्ट् प्रातः इट् स्टेस् एस् प्रातः बट् इफ् ऐ पुट् कालः हौ विल् इट् चेञ्ज्
काले
काले श्वः प्रातःकाले इतः फ्रम् हियर् एव विद्यालयं गच्छतु वै विद्यालयं
द्वितीयं
द्वितीया विभक्ति बिकास् आफ् द गमनक्रिया
ओके
विद्यालये गच्छतु न ओके विद्यालयं गच्छतु ओके ओके देट् इस् सो मच् इन्फर्मेशन् इन् दिस् वन् अस्तु
ऐ हेव् ए प्राब्लम् ऐ आल्सो नो वट् वेर् टु यूस् वाट् विभक्ति बट् ऐ डोण्ट् नो दि नेम्स् आफ् दि विभक्ति प्रथमा विभक्ति द्वितीया विभक्ति
वेरि गुड् महोदय दट् इस् द मोस्ट् इम्पोर्टेण्ट् दट् इस् द मोस्ट् इम्पोर्टेण्ट् सो देर् इस् नो मेजिक् टु रिमेम्बर् वदतु भगिनि इतः मीन्स् फ्रम् हियर्
फ्रम् हियर् ओके
अत्रतः विल् बिकम् इतः
इस् इट् नान् डिक्लैनबल्
इट् इस् नान् डिक्लैनबल् अव्ययं या सो सो महोदय सो यु हाव् टु रिमेम्बर् द विभक्ति इन् आर्डर् रामः रामम् रामेण
रामात्
रामाय
रामाय रामात्
रामात् लैक् देट् सो वन्स् यु केन् रिमेम्बर् इन् आर्डर् देन् यु से फस्ट् सेकेण्ड् थर्ड् फोर्त् लैक्
ओके ओके
इट् इस् हार्ड् भगिनि इट् इस् हार्ड् टु रिमेम्बर्
But if you put the English thing, you know, like to, for, from.
Actually, Bhagini, now they are recommending not to translate from English.
Oh. Okay.
You can translate from your mother tongue.
Oh. But Bhagini, it is hard to remember. That I am telling.
Yeah, I know.
Bhagini, dve prashnau santi.
वदतु
द्वौ when do you use ma and when do you use na?
Okay. So na agatah means it's like a statement, right? Mama anujaha na agatavan chet. But if you are telling somebody not to do something, then you use ma.
Okay.
Ma avataratu. Do not get down like that. So atra dhanyavada. So atra I can send you some videos where they teach you how to remember. Like
remember the discussion we had this earlier. The simplest way to remember is na is no, ma is don't.
Na is na. Punaha vadatu mahodaya.
Na is no. Na means no. Ma means don't.
Ma means don't.
Ma means don't. Okay. Thank you. The other question.
90% of the time you should fit in. There may be exceptions here and there.
Thank you.
Anya prashnaha vadatu bhagini.
You mentioned that you can say yanam saha. My question is, if you use saha, is it mandatory to use pariyantam?
No.
It is not. Okay.
No.
Thank you.
Astu. So, I can say
itaha, tata. We have itaha and tatrataha. But
Tataha
would be different again, right?
No, Tataha is the Tatrataha. There is no Tatrataha.
Tataha is the opposite of the Itaha. So
Itaha means Atrataha. Atrataha is same as Itaha.
Oh, okay.
Atrataha is wrong. You have to use only Itaha.
What about the from there?
Tataha.
Tataha. Because in the Bhagavad Gita shlokas it comes, no? Tataha.
So in that context, it will be like after that or from that also.
Tataha kuru yatatmavan.
Yeah, like that. It will be like from that or, that kind of context. अस्तु सो वयम् अग्रे गच्छामः अग्रिमवर्गे इदानीं न समयः अतीतः गृहपाठरूपेण कुर्वन्तु अस्तु प्रश्नाः सन्ति चेत् पृच्छन्तु ऐ विल् ट्रै एण्ड् सेण्ड् यू सम् विडियोस् वेर् दे विल् हेल्प् यू रिमेम्बर् विभक्ति सो इट् बि लैक् अम् एन आ लैक् देट् यु नो सो
Yeah, that's a good one.
We have learned this way, Bhagini. Ramah, Ramo, Ramah, Ramam, Ramo, Ramah.
Yeah, so there are many ways to do it, Bhagini. We can do the traditional way. We can do, some people say, like, that Sambhashana, not Sambhashana, Subhashitam Dwara Patayanti Kalo Tatra. There they teach the Eka Vachanam Eva, like Ramah, Ramam, Ramena, Ramaya, Ramat, Ramasya, Rame. So if you learn to say it fluently, Ramah, Ramam, Ramena, Ramaya, Ramat, Ramasya, Rame, like that, Rame, He, Rama, like that.
That's good, Bhagini.
Yeah.
Yeah,
so,
this is better, yeah.
Yeah. So if we know the Eka Vachanam, that is Paryaptam. Okay. If we know the Eka Vachanam, like how Mahodaya says, I know the form is Ramasya, but how do I know it is Shashti? So you start counting. So you start to count, right? Rama, Ramam, Ramena, Ramaya, Ramat, Ramasya, Ramasya, Shashti.
Right.
Like that. Astu Mahadeya. Viramama Shanti Mantra Vadamaha. Om Sarve Bhavantu Sukhinaha. Sarve सर्वे सन्तु
निरामया
सर्वे
भद्राणि पश्यन्तु
मा कश्चित् दुःखभाग्
भवेत् ॐ शान्ति शान्ति शान्तिः हरिः ॐ
गुरुभ्यो नमः
हरिः
send it to you, Bhagini. I will search and send it to you, okay? I will search and send it to you.
Oh,
otherwise, you do your own.
I looked for it. I didn't find it.
Okay, I will try and look for it.
Bhagini?
Bhagini? Bhagini?
Santu. Santu Agnyava.
Santu, Santu is like Agnya or like a Prarthana. Like you are praying, Sarve Bhavantu. Bhavantu can be both an Agnya and a Prarthana. Hello? So here it is a Prarthana. Prarthana means actual Prarthana to God.
Astu.
Astu.
Dhanyavad.
धन्यवादः धन्यवादः